अन्तःप्रविश्यावसरेथ तत्र स्निग्धे वयस्ये विजया जया च सुसंपदोपाचरतां कलानां अंके स्थितां तां शशिखण्डमौलेः
अन्तरिति अथ अनन्तरं तत्र अवसरे समये विजया जया चेति उभे स्निग्धे सार्द्रचित्ते वयस्ये सख्यौ आलिस्सखी वयस्या च इत्यमरः अन्तः प्रविश्य तत्र शशिनः खण्डं मौलौ यस्य तथोक्तस्य हरस्य सम्बन्धिनि अङ्के स्थितां तां पार्वतीं कलानां भूषणकरणचातुरीविशेषाणां सुसंपदा शोभनया सम्पदा शोभया इत्यर्थः उपाचरताम् अलंचक्रतुरित्यर्थः उपाचरतामिति लङः प्रथमपुरुषस्य द्विवचनम्
व्यधुर्बहिर्मङ्गलगानमुच्चैः वैतालिकाश्चित्रचरित्रचारु जगुश्च गन्धर्वगणाः सशङ्खस्वनम् प्रमोदाय पिनाकपाणेः
व्यधुरिति बहिःप्रदेशे वैतालिकाः वन्दिनः चित्रेण चरित्रेण चारु मनोहरम् मङ्गलरूपम् गानम् गीतमित्यर्थः उच्चैः उच्चस्वरेण व्यधुः चक्रुः तथा गन्धर्वगणाश्च पिनाकपाणेः हरस्य प्रमोदाय आनन्दाय प्रमोदामोदसम्मदाः इत्यमरः सशङ्खस्वनम् पाञ्चजन्यशब्दसहितम् यथा तथा जगुः गायन्ति स्म
ततस्वसेवावसरे सुराणाम् गणांस्तदालोकनतत्पराणाम् द्वारि प्रविश्य प्रणतोऽथ नन्दी निवेदयामास कृताञ्जलिः सन्
तत इति ततः अनन्तरम् स्वस्य स्वकर्तृकायाः सेवायाः अवसरे समये तस्य हरस्य यदालोकनम् तत्र तत्पराणाम् आसक्तानाम् सुराणाम् गणान् कर्मभूतान् नन्दी कर्ता प्रणतः नम्रीभूतः सन् द्वारि प्रविश्य न तु अन्तरेवेत्यर्थः कृताञ्जलिः सन् निवेदयामास देवाः भवदवलोकनसमुत्सुकाः सन्तीति हरम् बोधयामासेत्यर्थः
महेश्वरो मानसराजहंसीम् करे दधानस्तनयाम् हिमाद्रेः सम्भोगलीलालयतः सहेलम् हरो बहिस्तानभिनिर्जगाम
महेश्वर इति महान् ईश्वरः समर्थः हरः मानसस्य मनोरूपस्य सरसः राजहंसी हिमाद्रेः तनयाम् पार्वतीम् करे दधानः सन् सम्भोगलीलायाः आलयतः मन्दिरात् निकाय्य निलयालयाः इत्यमरः बहिः तान् सुरान् अभि सहेलम् सलीलम् यथा तथा निर्जगाम निश्चक्रामेत्यर्थः
क्रमान् महेन्द्रप्रमुखाः प्रणेमुः शिरो निबद्धाञ्जलयो महेशम् प्रालेय शैलाधिपतेस्तनूजाम् देवीम् च लोकत्रयमातरम् ते
क्रमादिति महेन्द्रप्रमुखाः ते देवाः शिरस्सु निबद्धाः अञ्जलयः यैः तथोक्ताः सन्तः महेशम् हरम् तथा प्रालेयः हिमानीरूपः यः शैलाधिपतिः पर्वतराजः हिमालयः तस्य तनूजाम् कन्याम् लोकत्रयस्य मातरम् जननीम् देवीम् पार्वतीम् च क्रमात् प्रणेमुः नमश्चक्रुरित्यर्थः उपसर्गादसमासेऽपि इति णत्वम्
यथागतम् तान् विबुधान् विसृज्य प्रसाद्य मानक्रियया प्रतस्थे स नन्दिना दत्तभुजोऽधिरुह्य वृषम् वृषाङ्कः सह शैलपुत्र्या
यथागतमिति सः वृषाङ्कः हरः तान् विबुधान् इन्द्रादीन् मानक्रियया सम्मानविधानेनेत्यर्थः प्रसाद्य प्रसन्नान् कृत्वा तथा यथागतम् विसृज्य च नन्दिना दत्तः भुजः यस्मै तथोक्तः सन् शैलपुत्र्या पार्वत्या सह वृषम् अधिरुह्य आस्थाय प्रतस्थे समवप्रविभ्यः स्थः इत्यात्मनेपदम् साकम् सार्धम् समम् सः इत्यमरः
मनोति वेगेन ककुद्मता सः प्रतिष्ठमानो गगनाध्वनोऽन्तः वैमानिकैः साञ्जलिभिर्ववन्दे विहारहेलागतिभिर्गिरीशः
मन इति मनसः अपि अत्यन्तम् वेगः गतिः जवः यस्य तेन ककुद्मता वृषेण गगनरूपिणः अध्वनः मार्गस्य अन्तः मध्ये प्रतिष्ठते चलतीति प्रतिष्ठमानः सः गिरीशः हरः विहारार्थम् हेलया क्रीडया गतिः येषाम् तैः यदृच्छया सञ्चरमाणैः इत्यर्थः वैमानिकैः विमानैश्चरन्तीति वैमानिकाः चरतीति ठक् ठस्येकः इति इकादेशः किति चेति आदिवृद्धिः तथोक्तैः देवैः इत्यर्थः साञ्जलिभिः सद्भिः ववन्दे नमस्कृतः कर्मणि लिट्
स्वर्वाहिनी वारिविहारचारी रतान्तनारी श्रमशान्तिकारी तौ पारिजातप्रसवप्रसङ्गः मरुत्सिषेवे गिरिजा गिरीशौ
स्वर्वाहिनीति तौ गिरिजागिरीशौ गौरीहरौ कर्मभूतावित्यर्थः स्वर्वाहिन्याः मन्दाकिन्याः सम्बन्धिनि वारिणि विहारम् सञ्चारम् चरति आचरति करोतीति यावत् मन्दाकिनी सीकरवाहीत्यर्थः अनेन शैत्योक्तिः तथा रतान्ते यः नारीणाम् सम्बन्धी श्रमः खेदः तस्य शान्तिम् करोति अनेन मान्द्योक्तिः तथा पारिजातस्य कल्पवृक्षस्य सम्बन्धिनाम् प्रसवानाम् पुष्पाणाम् प्रसङ्गः सम्बन्धः यस्य अनेन सौगन्ध्योक्तिः शैत्यमान्द्यसौगन्ध्यरूपगुणत्रयविशिष्टः मरुत् समीरणः कर्तृभूत इत्यर्थः सिषेवे आराधयामासेत्यर्थः
पिनाकिनापि स्फटिकाचलेन्द्रः कैलासनामा कलिताम्बरांशः धृतार्धसोमोद्भुतभोगिभोगः विभूतिधारी स्व इव प्रपेदे
पिनाकिनेति पिनाकिनापि हरेणापि कलितः स्वमहत्वेन आवृतः अम्बरांशः आकाशप्रान्तदेशः येन तथोक्तः द्वितीयपक्षे कलिता वेष्टिता अम्बरस्य अंशा दिग्रूपा येन दिगंबर इत्यर्थः तथा अर्धः यः सोमः चंद्रः सः अस्य अस्तीति अर्धसोमः हरः स धृतः येन कैलासवासी हि भगवान् गिरीश इति भावः द्वितीयपक्षे धृतः अर्धः कलारूपः चंद्रः येन चंद्रशेखरो हि भगवान् गिरीश इति भावः भोगिन्यश्च भोगिनश्च भोगिनः पुमान्स्त्रिया इत्येकशेषः भोगिनः कामुकाः इत्यर्थः तेषां तत्कर्तृकः यः भोगः संभोगः सः अद्भुतः आश्चर्यकारी यत्र द्वितीयपक्षे अद्भुता भोगिनां सर्पाणां भोगाः देहाः यत्र सर्पभूषणो हि भगवानिति भावः तथा विभूतिं धरतीति विभूतिधारी सम्पद्वानित्यर्थः द्वितीयपक्षे विभूतिं भस्म धरतीति तथा भस्मोद्धूलनकारी हि भगवान् गिरीश इति भावः तथा कैलासनामा स्फटिकानाम् अचलेन्द्रः गिरीन्द्रः कर्मभूत इत्यर्थः स्व इव आत्मा इव प्रपेदे प्राप्तः कर्मणि लिट् पूर्णोपमालङ्कारः
विलोक्य यत्र स्फटिकस्य भित्तौ सिद्धांगना स्वं प्रतिबिंबमारात् भ्रांत्या परस्या विमुखी भवन्ति प्रियेषु मानग्रहिलानमत्सु
विलोक्येति यत्र कैलासे स्फटिकस्य भित्तौ आरात् समीपम् आरात् दूरसमीपयोः इत्यमरः पतितं स्वं स्वकीयं प्रतिबिम्बं विलोक्य परस्याः सपत्न्याः भ्रान्त्या भ्रमेण मानग्रहिलाः माने प्रणयकलहे ग्रहिलाः आग्रहवत्यः तुन्दादेः आकृतिगणत्वाश्रयणात् इलच् सिद्धांगनाः प्रियेषु नमत्स्वपि सत्सु विमुखी भवन्ति पराङ्मुख्यः भवन्तीत्यर्थः
सुबिम्बितस्य स्फटिकांशुगुप्तेः चन्द्रस्य चिह्नः प्रकरः करोति गौर्यार्पितस्येव रसेन यत्र कस्तूरिकायाः शकलस्य लीलाम्
सुबिम्बितस्येति यत्र स्फटिकाचलेन्द्रे सुबिम्बितस्य प्रतिबिम्बितस्य अत एव स्फटिकांशुभिः शुभ्रैः इत्यर्थः गुप्तिः प्रतिबिम्बगोपनम् यस्य उभयोः शुक्लत्वात् पृथगभासमानस्येत्यर्थः तथोक्तस्य चन्द्रस्य सम्बन्धी चिह्नप्रकरः कलङ्कसञ्चयः चिह्नम् लक्ष्म च लक्षणम् इत्यमरः गौर्या पार्वत्या अर्पितस्य निहितस्य कस्तूरिकायाः शकलस्य खण्डस्य संचय इवेति उत्प्रेक्षा लीलां क्रीडां शोभामिति यावत् करोति निदर्शनाभेदः स च उपमया उत्प्रेक्षया वा संकीर्यत इति संदेहसंकरः अत्र अलंकारः यदि गौर्या अर्पितं तर्हि उपमा यदि नार्पितं तर्हि उत्प्रेक्षेति अवधेयम्
यदीय भित्तौ प्रतिबिंबितांगं आत्मानमालोक्य रुषाकरीन्द्राः मत्तान्यकुम्भिभ्रमतोति भीम दन्ताभिघातव्यसनं वहन्ति
यदीयेति करीन्द्राः आत्मानं शरीरं स्वीयमिति शेषः यदीयभित्तौ प्रतिबिम्बिताङ्गं प्रतिबिम्बितावयवं आलोक्य विलोक्य मत्ताः ये अन्ये कुम्भिनः दन्तिनः तेषां भ्रमतः भ्रमात् जनितया रुषा क्रोधेन प्रतिघा रुट् क्रुधौ स्त्रियौ इत्यमरः अतिभीमाः ये दन्ताः तेषां यः अभिघातः आघातः तेन यद्व्यसनं दुःखं दन्तजर्जरितत्वलक्षणं वहन्ति प्राप्नुवन्ति भ्रमात्मकं ज्ञानं दुःखावहं भवतीति भावः
निशासु यत्र प्रतिबिम्बितानि ताराकुलानि स्फटिकालयेषु दृष्ट्वा रतान्तच्युततारहार मुक्ता भ्रमं बिभ्रति सिद्धवध्वः
निशास्विति यत्र स्फटिकाचले स्फटिकालयेषु प्रतिबिम्बितानि ताराकुलानि नक्षत्रकुलानि निशासु दृष्ट्वा सिद्धवध्वः किन्नरनार्यः रतान्ते च्युतः भ्रष्टः तारः अत्युच्चैः यः हारः मुक्ताहारः तारोऽत्युच्चैस्त्रयस्त्रिषु इत्यमरः तस्य याः मुक्ताः मौक्तिकानि तासां भ्रमं बिभ्रति स्फटिकालयप्रतिबिम्बितमुक्तासदृशनक्षत्रकुलम् अभिवीक्ष्य सुरतान्तकालीन हारभ्रंशोन्मुक्ताफलभ्रान्तिमत्यः सिद्धवध्वः भवन्तीति भावः
नभश्चरीमण्डनदर्पणश्रीः सुधानिधिर्मूर्धनि यस्य तिष्ठन् अनर्घ्यचूडामणितामुपैति शैलाधिनाथस्य शिवालयस्य
नभश्चरीति नभसि चरतीति नभश्चरी आकाशचारिणी इत्यर्थः चरेष्टः इति टप्रत्यये टित्वात् टिड्ढाणै इति ङीप् तथोक्ता मण्डनस्य विलासस्य यः दर्पणः आदर्शः तस्य श्रीरिव श्रीः यस्य तथोक्तः अत्र श्रीशब्दस्य रूढत्वेन शोभेति संज्ञावाचकत्वात् संज्ञापूरण्योश्च इति पुंवद्भावो न सुधानिधिः चन्द्रः यस्य कैलासस्य मूर्धनि शृङ्गे तिष्ठन् शिवालयस्य शिवाः कल्याणकारिणः आलयाः गृहाः यत्र तस्य शैलानाम् अधिनाथस्य पत्युः हिमालयस्य अनर्घ्यः यः चूडामणिः तत्ताम् उपैति. हिमालयशिखरस्य कैलासशिखरात् किञ्चित् अधिकत्वम्. यदा कैलासमूर्धनि चन्द्रः तदा हिमालयस्य मूर्ध्नः अथः किञ्चित् वर्तते इति भावः.
समीयिवांसो रहसि स्मरार्ताः रिरंसवो यत्र सुराः प्रियाभिः एकाकिनोऽपि प्रतिबिम्बभाजः विभान्ति भूयोभिरिवान्विता स्वैः.
समीयिवांस इति यत्र सुराः स्मरार्ताः अत एव रिरंसवः रन्तुमिच्छन्तः. रमतेः सन्नन्तात् सनाशंसभिक्ष उः इति उप्रत्ययः. तथोक्ताः अत एव प्रियाभिः सह एकाकिनः अपि प्रत्येकम् एकसङ्ख्याका अपि रहसि समीयिवांसः प्राप्नुवन्तः भूयोभिः स्वैर्देहैः अन्विता इव विभान्ति. यतः प्रतिबिम्बभाजः प्रतिबिम्बवशात् एक एव अनेकधा दृश्यते इति युक्तमेवेति भावः.
देवोऽपि गौर्या सह चन्द्रमौलिः यदृच्छया स्फाटिकशैलशृङ्गे शृङ्गारचेष्टाभिरनारताभिः मनोहराभिर्व्यहरच्चिराय.
देवोऽपीति चन्द्रमौलिः देवः अपि हरः अपि स्फाटिकशैलः कैलासः तस्य शृङ्गे शिखरे शृङ्गम् प्रभुत्वे शिखरे इति मेदिनी. गौर्या पार्वत्या सह यदृच्छया स्वेच्छया यथाकाममित्यर्थः. मनोहराभिः अत एव अनारताभिः निरन्तरम् भवन्तीभिः शृङ्गारचेष्टाभिः चिराय व्यहरत् विजहार.
देवस्य तस्य स्मरसूदनस्य हस्तम् समालिङ्ग्य सुविभ्रमश्रीः सा नन्दिना वेत्रभृतोपदिष्ट मार्गा पुरोगेन कलम् चचाल.
देवस्येति सुविभ्रमश्रीः शोभना विभ्रमस्य विलासस्य श्रीः यस्यास्सा पार्वती. स्मरसूदनस्य स्मरविनाशकस्य तस्य देवस्य हरस्य हस्तम् समालिङ्ग्य अवलम्ब्य इत्यर्थः. वेत्रभृता यष्टिधारकेण तथा पुरोगेण अग्रगामिना नन्दिना गणेन उपदिष्टमार्गतः गमनम् विधेयमिति प्रदर्शितमार्गा सती कलम् मधुरम् यथा तथा चचाल. मन्थराम् गतिम् अकार्षीरित्यर्थः.
चलच्छिखाग्रो विकटाङ्गभङ्गः सुदन्तुरः शुक्लसुतीक्ष्णतुण्डः भ्रुवोपदिष्टः सतु शङ्करेण तस्या विनोदाय ननर्तभृङ्गी.
चलदिति चलन्ति शिखाग्राणि चूडाग्राणि यस्य शिखा शाखा बर्हिचूडा लाङ्गलिक्यग्रमात्रके चूडामात्रे शिखायाञ्च ज्वालायाम् प्रपदेऽपि च इति मेदिनी. तथा विकटाः करालाः अंगभंगाः नृत्यचेष्टाविशेषाः यस्य विकटो वज्रवाराह्यां त्रिषु रुचिरकालयोः इति मेदिनी तथा सुदन्तुरः उन्नतः दन्तुरस्तुन्नते त्रिषु इति मेदिनी दन्त उन्नत उरच् इति उरच् प्रत्ययः शुक्लं शुभ्रं सुतीक्ष्णं सुतरां तिग्मं तुण्डं मुखं यस्य एतादृशः सः प्रसिद्धः भृङ्गी गणविशेषस्तु तस्याः भवान्याः विनोदाय आनन्दाय शङ्करेण भ्रुवा उपदिष्टः प्रेरितस्सन् ननर्त
कण्ठस्थलीलोलकपालमाला दंष्ट्राकरालाननमभ्यनृत्यत् प्रीतेन तेन प्रभुणा नियुक्ता काली कलत्रस्य मुदे प्रियस्य
कंठस्थलीति कंठस्य स्थल्यां लोला कपालानां नृकपालानां माला यस्याः तथा दंष्ट्राभिः करालं भयानकं आननं बिभ्रती काली कालिका काली तु कालिका क्षीरकीटेषु परिकीर्तिता इति मेदिनी प्रियस्य कलत्रस्य पार्वत्याः मुदे प्रीत्यै तेन प्रभुणा हरेण प्रीतेन सता नियुक्ता प्रेरिता सती अभ्यनृत्यत् ननर्त नृत्यतेः दैवादिकात् कर्तरि लङ्
भयङ्करौ तौ विकटं नदन्तौ विलोक्य बाला भयविह्वलाङ्गी सरागमुत्सङ्गमनङ्गशत्रोः गाढं प्रसह्य स्वयमालिलिङ्ग
भयङ्कराविति विकटं करालं यथा तथा नदन्तौ शब्दायमानौ अत एव भयङ्करौ तौ काली भृङ्गिणौ विलोक्य भयेन विह्वलम् अङ्गम् यस्यास्सा बाला पार्वती प्रसह्य बलात्कारेण स्वयम् आत्मनैव अनङ्गशत्रोः हरस्य उत्सङ्गम् सरागम् सानुरागम् यथा तथा सरङ्गम् इति पाठे भावे नलोपश्चिन्त्यः गाढम् आलिलिङ्ग अन्यः अपि भीतस्सन् कञ्चिदालिङ्गति तद्वदिति भावः
उत्तुङ्गपीनस्तनपिण्डपीडम् ससम्भ्रमम् तत्परिरम्भमीशः प्रपद्य सद्यः पुलकोपगूढः स्मरेण रूढप्रमदो ममाद
उत्तुङ्गेति ईशः हरः रूढा उपरि आरूढा प्रमदा पार्वती यस्य अत एव उत्तुङ्गम् उच्चैः पीनम् पुष्टम् यत् स्तनपिण्डम् उभयोः अतिस्थूलतया परस्परसंयुक्तत्वात् पिण्डीभूतमिति भावः तेन कृता पीडा यत्र तथा ससम्भ्रमम् सभयम् तस्याः तत्कर्तृकम् परिरम्भम् आश्लेषम् प्रपद्य प्राप्य स्मरेण कामेन हेतुना सद्यः सहसा पुलकैः उपगूढस्सन् ममाद मत्तो बभूव
इति गिरितनुजा विलासलीला विविध विभङ्गिभिरेष तोषितः सन् अमृतकरशिरो मणिर्गिरीन्द्रे कृतवसतिर्वशिभिर्गणैर्ननन्द
इति गिरीन्द्रे कैलासे कृता वसतिः येन तथा अमृतकरः चन्द्रः शिरसि मणिरिव यस्य सः एषः हरः इत्येवं भूतैः गिरितनुजायाः पार्वत्याः सम्बन्धिनी या विलासलीला सकामचेष्टा क्रीडा तस्याः विविधाः नानाविधाः याः विभङ्ग्यः रचनाः ताभिः तोषितः प्रीतः सन् वशिभिः स्ववशं गतैः गणैः नन्दिप्रभृतिभिः सह ननन्द जहर्ष तेषाम् हर्षः अनयोः अलौकिकक्रीडादर्शनादिति भावः अनुसन्धेयः पुष्पिताग्रावृत्तम् अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा इति तल्लक्षणात् इति श्रीपर्वणीकरोपनामक श्रीलक्ष्मणभट्टात्मजसतीगर्भसम्भव श्रीसीतारामकविविरचितया सञ्जीविनीसमाख्यया व्याख्यया समेतः श्रीकालिदासकृतौ कुमारसम्भवे महाकाव्ये कैलासगमनो नाम नवमः सर्गः